सर्वेषां स्वागतं ध्येयमन्त्रेण आरम्भं कुर्मः. अस्तु भगिनि, पठतु.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं तत्सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानं माहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणन्नु कुर्याम विश्वं शान्तिं समन्वितम्. ॐ शान्ति शान्ति शान्ति, श्रीगुरुभ्यो नमः. ॐ
सुन्दरं भगिनि, बहु धन्यवादः.
धन्यवादः.
धन्यवादः. इदानीं वयं शब्दं प्रति गच्छामः. नूतनछात्रः आगच्छति वा? अस्तु, प्रथमं गोपिका भगिनी, भवती किं पठितुम् इच्छति? अद्य वाक्यमपि वदतु. रामः इति अस्ति चेत् केवलं रामः एव न, वृक्षः अपि च आसन्दः, बालकः, पुरुषः, आपणः, किमपि. अस्तु भगिनि, वाक्यं वदति वा?
आं भगिनि. वृक्षः
वृक्षः उत्तमं.
वृक्षः वृक्षः वर्तते.
अस्ति, वृक्षः अस्ति, इदानीम् अस्ति
अस्ति अस्ति. आपणं गच्छति. छात्रेण सह गच्छति. रामाय पुष्पम् अर्पयति. कृष्णतः कृष्णात् सद्गुणम् आशीर्वादं स्वीकरोति. कृष्णात् आशीर्वादं स्वीकरोति.
उत्तम.
कृष्णस्य
मित्रं
कृष्णस्य मित्रं
सुदामा इति.
आम्, सुदामा.
सुदामा, उत्तमं भगिनि, धन्यवादः.
रामे सद्गुणाः सन्ति.
उत्तमम्, उत्तमं, बहु धन्यवादः. बहु उत्तमं, बहु सुन्दरम्. अस्तु, धन्यवादः. अग्रे का पठितुम् इच्छति?
अहं पठामि वा भगिनि?
आं भगिनि, सन्ध्या भगिनि खलु, पठतु.
पुल्लिङ्ग एव वा?
न, किमपि पुल्लिङ्ग, एतदपि पुल्लिङ्ग एव, स्त्रीलिङ्ग, आकारान्त, इकारान्त, नपुंसकलिङ्ग.
आकारान्त स्त्रीलिङ्ग.
अस्तु.
सीता ग्रामे वसति.
उत्तमम्, कथां वदति वा? उत्तमम्.
अहं सीतां ज्ञातवती.
उत्तमम्.
सीतया सह तस्याः भगिनी अपि वसति.
नमस्कार भगिनी, परमेश्वर हियर.
नमस्कारः महोदय, स्वागतम्.
थैंक यू.
अस्तु अस्तु भगिनि, अग्रे.
चतुर्थी, सीतायै तस्याः भगिनी स्वादिष्टभोजनं पाकं कृतवती. पञ्चमी, सीतायाः तस्याः भगिनी पाठं पठितवती. षष्ठी, सीतायाः केशाः दीर्घ अस्ति.
दीर्घाः सन्ति.
दीर्घाः सन्ति वा अस्ति वा भगिनी? केशाः
तत्तु सन्ति एव अहं चिन्तयामि, व्याकरणदृष्ट्या. व्याकरणदृष्ट्या
अस्तु भगिनि. सप्तमी, सीतायाम् अनेकानि दायित्वानि आसन्. इस् दट् ओके भगिनी? रेस्पान्सिबिलिटीस्. सीतायाम् अनेकानि दायित्वानि आसन्.
सत्य सत्यं.
हे सीते, अहं त्वं पनते.
नमस्ते वा. अस्तु उत्तमम्.
आपनामि, अड्मायर् आपनामि भगिनि? पनते
पनते. अस्तु अस्तु, पनते. सत्यं भगिनि. उत्तमम्. अस्तु अग्रे. धन्यवादः भगिनि, बहु उत्तमम् अस्ति.
धन्यवादः भगिनि.
अग्रे का वक्तुम् इच्छति वाक्यानि?
अहं शारदा अस्मि.
अस्तु भगिनि, पठतु, वदतु.
इकारान्त नपुंसकलिङ्ग शब्दः.
अस्तु.
वारी शब्दः.
अस्तु.
वारी पतति. वारी इच्छामि.
वारीं वारीं
वारी वारीं वारी नपुंसकलिङ्गपदं भगिनि.
ओ वारि वा. सो तत् वयं न पठितवन्तः भगिनि. वारि वारिणि वारीणि तत् तत् न पठितवन्तः वयम्.
अस्तु भगिनि. आकारान्तस्त्रीलिङ्गपदं वदतु, वदति वा?
वदतु भगिनि.
छुरिका शब्दः. छुरिका तीक्ष्णा अस्ति. एकां छुरिकां क्रीणातु. सम्यक् वा भगिनि?
सम्यक् भगिनि, सम्यक्.
छुरिकया फलानि कर्तयामि.
फलानि कर्तयामि इति पर्याप्तं. कर्तयामि
कर्तयामि. अहं छुरिकायै सर्वत्र अन्वेषणं कृतवती. सा छुरिकायाः प्रक्षालयति. अयोमलं रस्ट् भगिनि. सा अयोमलं छुरिकायाः प्रक्षालयति. शी क्लीन्स् द रस्ट् फ्रोम् द नैफ्.
अस्तु अस्तु.
छुरिकायाः मुष्टेः वर्णः श्वेतः.
अस्तु.
हेण्डल्स् कलर्. तां प्रक्षालयितुम् अहं छुरिकायां तैलं रुषयामि. To clean it, I smeared oil on knife. I smear oil on the knife.
अस्तु अस्तु
धन्यवादः भगिनि.
हा उत्तमं भगिनि, बहु धन्यवादः. बहु नूतननूतनपदानि योजितवती. अस्तु
भगिनि, वन् डौट् अबौट् वाट् भगिनि जस्ट् सेड् इन् द चतुर्थी विभक्ति. Is it, I mean, I think the sentence was, Bhagini, I don't know which of you read it out, kindly correct me if I'm wrong, you said, I'm looking for the knife, right? Do you use Chaturthi or Dvitiya Vibhakti there, Bhagini?
We can use this also, Bhagini. We can say Dvitiya or we can say Chaturthi. Sometimes we can also use Shashti. छुरिकायाः अन्वेषणं करोमि, छुरिकाम् अन्वेषणं करोमि, छुरिकायै अन्वेषणं करोमि, बट् छुरिकाम् इस् ओके, छुरिकायाः इस् ओके. छुरिकायै वि यूस् वेरि वेरि रेर्लि.
ओके ओके,
वि केन् आल्सो से अहं छुरिकायै आपणं गच्छामि. फार् द छुरिका, ऐ वेण्ट् टु द शाप् फार् द छुरिका, फार् द सेक् आफ् द छुरिका. अहं छुरिकायै आपणं गच्छामि. सो इट्स् अ स्ट्रेच् बट् वी केन्
ओके ओके. धन्यवादः भगिनि.
हा धन्यवादः. अन्य कोऽपि वक्तुम् इच्छति वा?
अहम् इच्छामि भगिनि. ज्योति नदी शब्द भगिनि.
नदी वा? अस्तु, नदी.
नदीतीरे वृक्षम् अस्ति.
वृक्षः अस्ति.
नदीतीरे वृक्षः अस्ति. हे नदी, अहं त्वं वन्दति
वन्दामि
वन्दामि हे नदी, अहं त्वं वन्दामि
भगिनि. सो वन्द धातु is like an Atmanepadi.
Yeah.
We haven't learned it. So you say Vandate and then Vande like that. Okay. So you can use Namami.
Namami. Okay. Well.
Namami.
Hey Nadi, aham tvam namami. Nadim bahu sundaram asti.
Nadi bahu sundaram asti.
Yeah. Nadim
नदीं
सुन्दरं नदीं पश्यामि.
अहं सुन्दरं नदीं पश्यामि.
सो भगिनि, इफ् यु यूस् सुन्दर, इट् हेस् सुन्दरीं फार्
स्त्रीलिङ्ग. ओके, सुन्दरीं नदीं पश्यामि. नद्या जलं वास् लैक् स्वीट्. हौ
नद्याः जलं
मधुरं.
मधुरम् अस्ति. नद्याः जलं मधुरम् अस्ति.
नद्याः जलं मधुरम् अस्ति. नद्यै
नमः.
नद्यै नमः. Nadyaha also can be said same thing, no Bhagini, no?
Nadyaha jalam swikaromi va, panchami.
Panchami, yeah. Nadyaha jalam swikaromi. Nadyaha jalam
Madhuram.
I want to say, I'll take the water and... अभिषेकं टु द गाड्. वाट् डु ऐ फील् लैक्
दट्? अस्तु, नद्याः जलं स्वीकृत्य
अभिषेकं करोमि.
उत्तमं भगिनि. हा उत्तमं.
नद्याः जलं स्वीकृत्य अभिषेकं करोमि.
स्वीकृत्य.
ओके भगिनि, स्वीकृत्य अभिषेकं करोमि. नद्यां अहं नद्यां तीरे नृत्यं करोमि. नो,
नद्याः तीरे.
नद्याः तीरे नृत्यं करोमि. नद्याम्
अहं तरामि अथवा न तरामि.
okay the
nadyam snanam karomi
nadyam snanam karomi
ah uttamam bhagini
ah dhanyavad bhagini
sundaram sundaram bahu samya anya
janaysenam parameshwar
ah nischayana mahodaya
grandalayam
grantalayah ah grantalayah
grandalayah नगरे ग्रन्थालयः अस्ति
उत्तमं
द्वितीया विभक्ति ग्रन्थालयं बहु सुन्दरं
ग्रन्थालयः बहु सुन्दरः ग्रन्थालयं पश्यामि गच्छामि इत्यादि
अहं ग्रन्थालयं प्रतिदिनं गच्छामि
प्रतिदिनं गच्छामि
प्रतिदिनं गच्छामि द्वितीया ग्रन्थालयेन अरिव् नालेज् वट् इस् नालेज्
ज्ञानं
ज्ञानं वदति
ज्ञानं प्राप्नोमि वा तत्तु पञ्चमी
ओके ओके
अत्र ग्रन्थालयेन
ज्ञानं
प्राप्नोमि अस्तु प्राप्नोमि वदतु प्राप्नोमि
तदुति ग्रन्थालयाः
ग्रन्थालयाय
ग्रन्थालयाय
किं ददाति ग्रन्थालयाय
ज्ञानं ददाति
धनं ददामि धनं ददामि
ग्रन्थालयात्
ज्ञानम् इति उक्तवान् खलु ग्रन्थालयात् ज्ञानं प्राप्नोमि
षष्टि इति ग्रन्थालयस्य ग्रन्थालयस्य
वदतु ग्रन्थालयस्य पार्श्वे
ग्रन्थालयस्य पार्श्वे नदी अस्ति
उत्तमं ग्रन्थालयस्य पार्श्वे नदी अस्ति ग्रन्थालये
ग्रन्थालये ग्रन्थालये अनेकं पुस्तकम् अस्ति
अनेकानि पुस्तकानि
अनेकानि पुस्तकानि अस्ति
सन्ति अनेकानि पुस्तकानि सन्ति अस्तु धन्यवादः महोदय उत्तमं अन्य कोऽपि वक्तुम् इच्छति वा
अहम् इच्छामि उमाकृष्णन्
उत्तमं भगिनि वदतु
इकारान्त स्त्रीलिङ्ग कूपि उत्पीठिका उपरि कूपि अस्ति
उत्पीठिकायाः उपरि
उत्पीठिकायाः उपरि कूपि अस्ति कूपीं जलम् अस्ति
कूप्यां जलम् अस्ति
कूप्यां जलं
जलमस्ति कूपीं पश्यामि स्वीकरोमि ददामि इच्छामि
कूपीं स्वीकरोमि कूप्यां जलम् अस्ति कूप् वाट् विल् बि द तृतीया
कूप्या वाट् डु यु डु with the bottle kupya kim karoti
kupya saha jalam pibati
kupya jalam pibami kupya jalam anayami kupya jalam
kada pibami
kupya jalam pibami पञ्चमी
पञ्चमी
कूपीतः अथवा कूप्याः
कूपीतः जलं पोर् इट् इन् द ग्लास्
चषके
स्थापयति
स्थापयति स्थापयामि
षष्टि
चषके पूरयामि ऐ एम् फिलिङ्ग् पूरयामि
कूप्यातः चषके जलं चषके पूरयामि कूपीतः जलं चषके पूरयामि षष्टि कूप्याः
कूप्याः वर्णः अथवा
कूप्याः कूप्या रक्तवर्णम् अस्ति
वर्णः अस्ति कूप्याः रक्तवर्णः अस्ति उत्तमम् सप्तमी कूप्यां किम् अस्ति कूप्यां
कूप्यां सप्तमी
किम् अस्ति कूप्यां किं
जलम् अस्ति कूप्यां फलरसे अस्ति
उत्तमं भगिनि धन्यवादः अत्र चतुर्थी सम्यक् वाक्यं न आगच्छति चेत् अन्यपदं योजयतु अथवा कूप्यै अहम् आपणं गतवती फार् द बाटल् कूप्यै अहम् आपणं गतवती अथवा कूप्यै किमपि न कूप्यै जलं ददाति इति सम्यक् नास्ति कूप्यै जलं ददाति अस्तु अन्य कोऽपि
आं भगिनि अकारान्त पुल्लिङ्ग
अस्तु अस्तु
बालकः गृहे अस्ति
ओके अस्तु
बालिका बालकं पश्यति बालकेन सह
अस्तु वदतु
बालकेन सह तस्य मित्रं गच्छति
आम्
बालकाय माता अन्नं ददाति बालकात् विना तस्य भगिनी दुःखिता अस्ति
उत्तमम्
बालकस्य स्यूतः मलिनम् अस्ति
मलिनः स्यूतः मलिनः
मलिनः मलिनः द लास्ट् वन् फाक्स् मी भगिनि ऐ डोण्ट् नो हौ टु ऐ डोण्ट् नो वाट् टु से इन् द बाय्
बालके मम विश्वासः अस्ति बालके मम प्रीतिः अस्ति बालके सद्गुणः सद्गुणाः सन्ति
अस्तु भगिनि
धन्यवादः इट् बिकम्स् मोर् एब्स्ट्राक्ट् बालके अस्तु उत्तमं भगिनि अन्य कोऽपि वक्तुम् इच्छति वा अम्बा वक्तुम् इच्छति वा अम्बा वाक्यानि अस्तु न इति मन्ये अग्रे गच्छामः अभ्यासः वदतु भगिनि
I finished my turn, but I also experimented with a few other combinations. Would you like me to share it?
Nischayana Bhagini.
I mean, I tried using different lakara also, Bhagini. Strilinga with the lot lakara and napunsakling in Bhavishyat Kala.
Okay,
I can share either one of them, whichever you would like me to.
No. You choose, Bhagini. Kimapi. Vadatu.
Okay. I'll start with napunsakalinga Bhavishyat Kala. Aham shvaha mandiram gamishyami. That becomes sadvitiya.
Yeah, mandiram gamishyami. Yeah, that is
dvitiya. So the first one would perhaps be tatra mandiram asti. That will not come in Bhavishyat Kala.
Chintamad. Or you can say grame mandiram asit.
Asit, yeah. Okay, or tatra ekaha mandiram asti.
Samyak.
Tatra ekaha mandiram asti. Aham shvaha mandiram gamishyami.
You're right. But Bhagini, it should be ekam mandiram asti.
Ekam mandiram. Okay. Napunsakalinga. So in the tritiya, I cheated a bit, Bhagini. I couldn't find out tritiya for mandiram. So I said agrajena ta aham mandiram gamishyami.
Agrajena ta aham mandiram gamishyami. Anya vachyam api
mandirena
saha aham chitram svikaromi something.
Mandiraya dhanam chayanam karishyami.
Uttamam.
Mandirat graham paryantam pancha nimeshan duram asti.
So atra mandir that griham, I thought you said graham.
Mandirat graham paryantam pancha nimeshan duram asti. From the temple
Bhagini, there should be nimeshah, because duram asti, akin, like duram asti, nimeshah eva.
It's a distance of 5 minutes. It won't be nimeshah.
Nimeshah eva jintyam, Bhagini.
Okay. Mandirasya purohitaha dashavadane agamishyati. Saptami mandire prarthanaha bhavishyati. Sambodhana he mandira tvam asmabhyam shakti dadati.
Uttama. So atra prarthanah bhavishyanti, bahuvachanam bhavati tatra,
prarthanah bhavishyanti. Okay.
Uttama bhagini. Bahu uttama. Dhanyavadah. Anya kopi vaktum icchati va? Amba vaktum icchati va? Vakyani? Astu. अभ्यासदर्शिन्यां वयम् उपसर्गविषये पठितवन्तः खलु. सो अत्र उपसर्ग इत्युक्ते धातोः पूर्वं भवति. हृ धातु अस्ति, हरति इति लट्लकाररूपं, प्रहरति संहरति विहरति परिहरति अपहरति भिन्न भिन्न अर्थं भवति भिन्न भिन्न अर्थं भवति अथवा अर्थपोषणं भवति अथवा आत्मनेपदि धातु परस्मैपदि भवति परस्मै आत्मनेपदि धातु अपि भवति वयम् एतत् कृतवन्तः खलु अभ्यासं कृ धातु अपि कृतवन्तः नीतवान् कृतवन्तः वा अस्तु एतत् कुर्मः अप आ निर् अनु अभि परि नीतवान् अस्तु वा एतत् कृतवन्तः वा न वा अहं न स्मरामि
न भगिनि
एतत् अपि न कृतवन्तः वा
भगिनि नटः सम्यक् तत् करणीयम् We have completed कनिष्ठः ज्येष्ठस्य व्यवहारं
एततः एतदेव अहमपि चिन्तितवती परन्तु सम्यक्तया न स्मरामि इदानीम् अस्तु अस्तु तर्हि गोपिका भगिनी भवती एव आरम्भं करोतु सो अत्र अन्यपुटे अपि अस्ति खलु सो एतत् मिलित्वा वयं करणीयं नटः सम्यक् किं करोति नीतवान् इति अस्ति अपनीतवान् आनीतवान् निर्नीतवान् अनुनीतवान् अभिनीतवान् परिनीतवान्
नटः सम्यक् अभिनीतवान्
अभिनीतवान् अभिनयम् इत्युक्ते भावं सूचयति अभिनयम् अभिनीतवान् नटः इति पदस्य अर्थः कः
नटः इत्युक्ते
अभिनेत्री खलु नटः इत्युक्ते अन्यनाम अस्ति अभिनेत्री अभिनेत्री अभिनयं करोति अभिनेत्री अस्तु उत्तमम् अग्रे सो अत्र अपनीतवान् इत्युक्ते किम् आनीतवान् इत्युक्ते किं प्रथमम् अर्थं जानीमः वयम् अपनीतवान् अपनीतवान् इत्युक्ते निष्कासितवान् इति अर्थं भवति निष्कासितवान् इत्युक्ते अथवा दूरीकृतवान् इति अर्थे आनीतवान् अर्थः कः दूरे किमपि अस्ति तत् स्वीकृत्य अत्र आनीतवान् इति अर्थ निर्णीतवान् निर्णीतवान् इत्युक्ते इत्युक्ते निर्णयं कृतवान् निर्णीतवान् अनुनीतवान्
पुनः
पुनः नीतवान् अथवा पुनः अनुसृतवान् अस्तु अनुसृतवान् अथवा तेन सह नीतवान् इति अपि अर्थः अनुनीतवान् अभिनीतवान् वयं पठितवन्तः इदानीमेव दृष्टवन्तः परिणीतवान् इत्युक्ते
मेरेज् रामः सीतां परिणीतवान्
रामः सीतां परिणीतवान् अस्तु इदानीं कुर्मः उमाकृष्णन् भगिनी रामः सीतां
परिणीतवान्
अग्रिमं करोतु
वैद्यः रोगिणः वेद्नां निर्णीतवान्
अपनीतवान् निर्णीतवान् इत्युक्ते निर्णयनं कृतवान् he decided iti parantu vaidyah roginah vedanam roginah so atra rogin iti nakaraanta padam atra roginah iti shashti vibhakti vaidyah roginah vedanam apaneetavan itikte duri kritavan krit haranam kritavan itik iti arte भवति अस्तु अग्रे सन्ध्या भगिनी कर्मकरः
कर्मकरः आपणात् वस्तूनि आनीतवान्
हा सत्यम् आनीतवान् सुन्दरम् अस्तु अग्रे किं करणीयम् इति सः सागरी भगिनी किं करणीयम् इति सः
निर्णीतवान्
सत्यं मालति भगिनी वक्तुम् इच्छति वा अग्रजः अनुजम् अस्तु सविता भगिनी अग्रजः अनुजम्
आं भगिनि अग्रजः अनुजम् Can you see the word?
So, atra.
Agrajah, anujam.
Apa abhavat.
Apa
neetavan itukte duri kritavan. Aneetavan itukte dure asti parshve aneetavan. Nirneetavan itukte kim karaniyam iti nirneetavan. Abhinetri. नटः अभिनयं कृतवान् अभिनीतवान् अनुनीतवान् इत्युक्ते तेन सह अनुजम् अनुनीतवान् अग्रजः अनुजम्
अनुनीतवान् किं भगिनि अनुनीतवान्
हि टुक् हिम् अलाङ्ग् इति अर्थे
Bhagini, what did you say parinitavan means?
To get
married.
To get married. Parinitavan.
Okay. Dhaniwad.
Astu. Agre asti.
Bhagini, Shamitam. Karmakaraha apanat vastuni, what will come there?
Anitavan, kalo.
Anitavan?
Anitavan. अस्तु अत्र प्र उपसर्ग अनु उपसर्ग सम् उपसर्ग किमस्ति विशति प्रविशति प्रविशति इत्युक्ते
एण्टर्
एण्टर् प्रविशति टु एण्टर् दर्शयति प्रदर्शयति टु शो दर्शयति अपि टु शो एव प्रदर्शयति टु शो चलति इत्युक्ते टु गो प्रचलति इट् टेक्स् प्लेस् इति अर्थ वर्गः प्रचलति मार्गे वाहनं चलति प्रातःकालः प्रचलति इट् इस् हेपनिङ्ग् इति अर्थे आप्नोति प्राप्नोति समानार्थमेव आप्नोति प्राप्नोति शंसति
प्रशंसति
अस्तु सो अत्र सरति अनुसरति सरति अपि गच्छति इति अर्थे अस्ति अनुसरति तत्र सो अत्र सः सरति अहं तम् अनुसरामि फालो
फालो
तम् अनुसरामि गृह्णाति अनुगृह्णाति अनुगृह्णाति इस् टु रिसीव् टेक् या टेक् अस्तु इश् इष्यति.
अनुष्यति.
सो अत्र इट् बिकम्स्
अन्विष्यति.
इट् बिकम्स् अन्वेषयति. अन्वेषयति. अन्वेषयति टु सर्च्. अन्वेषयति. गच्छति अनुगच्छति. सरति अनुसरति इव एव समानार्थ. गच्छति सरति अनुगच्छति अनुसरति. अस्तु. भवति भवति
अनुभवति.
अनुभवं करोति. अनुभवामि. अस्तु. अत्र अर्पयति समर्पयति समानार्थ. अर्पयति समर्पयति. अर्थयति अर्थयति इत्युक्ते टु शो अवर् अवर् केपासिटि. अर्थयति समर्थयति. समर्थयति अपि वयं टु शो अवर् केपासिटि. अस्माकं सामर्थ्यं किम् इति अहं समर्थयामि. अस्तु. सम्पादयति.
सम्पादयति.
सम्पादयति. गृह्णाति. टु होल्ड्. सङ्गृह्णाति. टु कलेक्ट्. सङ्गृह्णाति. टु कलेक्ट्. चिनोति. टु सेलेक्ट्. किं भगिनि किमपि उक्तवती वा कोऽपि?
आं भगिनि. आप्ट्.
आप्ट्. ओके ओके. चिनोति. सञ्चिनोति. समानार्थमेव सञ्चिनोति. अस्तु. अग्रे गच्छामः इदानीम्. अस्तु. परमेश्वरमहोदय वाक्यद्वयम् इदानीं कार्यक्रमे भाषणम्
इदानीं कार्यक्रमे भाषणं फ्रम् दिस् वन् ऐ हव् टु टेक् नो.
प्रथमम् अस्ति खलु. प्रविशति. प्रदर्शयति. प्रचलति. प्राप्नोति. प्रशंसति.
भाषणं प्रशंसति.
प्रचलति खलु. प्रचलति. इट् इस् टेकिङ्ग्. प्रचलति. भाषणं प्रचलति.
प्रचलति.
प्रचलति. प्रशंसति इत्युक्ते somebody is praising somebody.
ओके. चलनचित्रमन्दिरमेषु सोरि चलनचित्रमन्दिरेषु चित्राणि
प्रदर्शयन्ति. सम्यक् एव महोदय. सम्यक् एव. चित्राणि प्रदर्शयन्ति. इट् इस् बीङ्ग् शोन्. चित्राणि प्रदर्शयन्ति. सम्यक्. अस्तु. शारदा भगिनि.
आं भगिनि. भवतः विचारः मम बुद्धौ न प्रविशति.
न प्रविशति. इस् नाट् एण्टरिङ्ग्. न प्रविशति. उत्तमम्. अग्रे.
एतां लेखनीं भवान् कुत्र प्राप्नुतवान्?
कुत्र प्राप्तवान्? प्राप्तवान्. प्राप्तवान्. कुत्र प्राप्तवान्? अस्तु. सम्यक्. अस्तु. ज्योति भगिनी.
आं भगिनि. भवतः विचारः मम बुद्धौ न
तत् अभवत् भगिनि.
पञ्चमं भगिनि.
पञ्चमं.
सः भवतः बुद्धिमत्तां बहु
अत्र एव.
वन् मिनिट् भगिनि. सः भवतः बुद्धिमत्तां बहु दर्शयति.
एतत् अभवत्
ओके ओके
सो अत्र इदानीं कार्यक्रमे भाषणं प्रचलति
प्रचलति प्रदर्शयति
प्रदर्शयति अभवत् बुद्धौ न प्रविशति अभवत् कुत्र प्राप्तवान् तदपि अभवत् शंसति
प्रशंसति
प्रशंसति उत्तम सः बुद्धिमत्तां
बहु प्रशंसति
प्रशंसति उत्तमम् अग्रिमं करोतु
बालकः बालकः नष्टां लेखनीं सर्वत्र सरति इदन्
न न सो अत्र वि हाव् टु नो द मीनिङ्ग्स् खलु सो सो अनुसरति अनुगच्छति इत्युक्ते टु फालो अनुगृह्णाति इत्युक्ते स्वीकरोति अथवा रिसीव् इति अर्थे अनुभवति इत्युक्ते अनुभवम् अनुभवामि इति
एक्स्पीरियन्स्
एक्स्पीरियन्स् अनु ईष्यति इत्युक्ते अन्वेषयति इति भवति अत्र अत्र सन्धिकार्यमस्ति सो अत्र अन्वेषयति इति अस्ति इदानीं करोतु अर्थं जानीमः चेत् सौकर्याय भवति
आं भगिनि बालकः नष्टां लेखनीं सर्वत्र अन्वेषयति भगिनि
अन्वेषयति सत्यम्
अन्वेषयति
अन्वेषयति उत्तमम् अस्तु अग्रे अन्य कोऽपि अस्ति वा नामन अम्ब वक्तुम् इच्छति वा न इति मन्ये अस्तु गोपिका भगिनि गोपिका भगिनि एकनिमिषं तिष्ठतु अविवेकी
चिन्तनं विना अन्यं अनुगच्छति
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 चिन्तनं
विना अन्यम्
अनुगच्छति अग्रिमं
भगवान् मुनिं मोक्षेण
अनुगृहीतवान् अनुग्रहं कृतवान्
अनुग्रहं कृतवान्
उत्तमम् अम्ब धन्यवादः अस्तु गोपिका भगिनि इदानीं सेवकः
आं भगिनि सेवकः स्वामिनम् अनुसरति
अनुसरति सेवकः स्वामिनम् अनुसरति अस्तु अग्रे
धनं प्राप्य निर्धनः सन्तोषम्
अनुभूतवान्
अम्बा अपि वदति सम्यक्तया
सा इच्छति इति मन्ये अस्तु अग्रे उमाकृष्णन् भगिनि बहु
वाट् वास् दट् वर्ड् अगेन् धनं प्राप्य निर्धनः सन्तोषम् अनुभवति और्
अनुभूतवान् अत्र अत्र वान् इति अस्ति खलु अतः भूतवान् इति उक्तवती सा
अनुभूतवान्
अनुभूतवान् अत्र अत्रापि मोक्षेन अनुगृहीतवान् अनुग्रहं कृतवान् अनुग्रहणं कृतवान् अनुग्रहं कृतवान्
धन्यवादः
अस्तु उमाकृष्णन् भगिनी प्रतिदिनं
भवान् धनं सम्पादयति
सो अत्र भगिनी सो अग्रिमं वाक्यमपि पठतु तत्र किञ्चित् अर्थ किं वदामि
भवान् धनं
तेन अग्रे लाभः भविष्यति इति अस्ति चेत्
सेव् मनी
सेव् उत्तमं सेव् सो अत्र सेव् इति अर्थे किम् अस्ति इति सञ्चिनोति इति अस्ति समर्पयति समर्पयति
samartayati
samartayati means to exhibit our capacity ah
okay
tat tavat nasti
to then arpayati is to
offer
maybe chinoti
chinoti sanchinoti means to save to collect to okay. save लाभः भविष्यति सो अत्र सङ्गृह्णाति इस् आल्सो टु कलेक्ट् सञ्चिनोति आल्सो टु कलेक्ट्
ओके
सो द कलेक्ट् वी केन् से इट् इस् सेव् आल्सो खलु सेव् सञ्चिनोति सङ्गृह्णाति अस्तु सम्यक् अग्रिमम् उद्योगी
प्रतिमासं धनं उद्योगी इस् द वर्कर् नो एव्री मन्त् गिव्
नो हि अर्न्स्
हि अर्न्
उद्योगी हि अर्न्स् मनी
हि अर्न्स् मनी
सम्पादयति सम्यक् सम्पादयति भक्तः देव सो अग्रे सन्ध्या भगिनी भक्तः
आं भगिनि समर्पयति
पुष्पाणि समर्पयति सम्यक् अस्तु अग्रिमम् अत्र अस्ति पण्डितः
समर्पयति
उत्तमं तस्य सामर्थ्यं प्रदर्शयति इति अर्थे अस्ति सागरी भगिनी अग्रे
काष्ठविक्रयिकः अरण्यं गत्वा काष्ठानि संचिनोति
संचिनोति अथवा सङ्गृह्णाति
सङ्गृह्णाति
अपि समानार्थके सङ्गृह्णाति सञ्चिनोति सम्यक् अस्तु अग्रे अग्रे गच्छामः
भगिनि
अस्तु
कृपया एतं वाक्यं विवरणोतु
काष्ठविक्रयकः काष्ठः इत्युक्ते वृक्षात् शाखाः सन्ति खलु शाखाः
आम्
सो अत्र लघु लघु शाखाः नाम अस्ति काष्ठः इति काष्ठः इट्स् लैक् स्टिक्स् समित्
भगिनी वेन् वि रैट् सङ्गृह्णाति द अङ् इस् द इस् वित् अ डाट् आर् इस् इट् ङ वित् अ हलन्त
ग ङ
भगिनी चिनोति गृह्णाति समानमर्थं किं
न चिनोति इत्युक्ते टु टु सेलेक्ट् लैक् नाट् देव् से खलु सो अत्र 1, 2, 3, 4, 5 पञ्चपदानि सन्ति उचितं पदं चित्वा सेलेक्ट्
So, in this sentence, it's only collect, it's not select.
Collection.
Collect, yeah. Here it is only select. Select, but then if you add it with sum, it becomes collection, like that.
So it can be used for this sentence, with Aranyam sentence.
Aam.
The Kashta Vik.
Aam.
you can either say sang chinoti or sang grinnati. Either yeah. one is okay.
Yeah, either one is okay. I will go with sang grinnati.
Grinnati. Oh. Astu bhagini. Dhanyavadah.
Dhanyavadah.
Bhagini kaashtani.
सो अत्र काष्ठविक्रयकः काष्ठानि काष्ठम् इत्युक्ते लैक् ट्विग्स् समित् इति वदामः खलु समित् सो अत्र वृक्षः अस्ति सो अत्र एकं पतति सो एतत् अस्ति काष्ठं ट्विग्स् स्टिक्स् समित् आल् दिस् सो हि कलेक्ट्
अस्तु भगिनि अवगतं धन्यवादः
धन्यवादः अस्तु अग्र ऐ मीन् अग्रे अधस्तनवाक्येषु अत्र विभक्तिका वाक्येषु सप्तमी बहुवचनं सम्यक् सप्तमी बहुवचनं यद्यपि क्रियापदानि सन्ति तथापि योग्यस्य उपसर्गस्य अभावात् अभावात् इत्युक्ते न सन्ति इति कारणात् अभावात् अर्थसङ्गतिः नास्ति सो अत्र सम्यक् अर्थं न बोधयति सङ्गतिः इत्युक्ते सङ्गमं खलु सङ्गतिः नास्ति अतः अर्थसङ्गतिः यथा स्यात् तथा योग्यम् उपसर्गं योजयत उदाहरणं पश्यामः आकाशवाणी वार्तां सारयति सारयति इति सम्यक् अर्थं न बोधयति खलु वाक्यस्य अर्थं सम्यक् नास्ति आकाशवाणी वार्तां प्रसारयति इति प्र उपसर्गं योजयामः चेत् सम्यक् अर्थं बोधयति सो अत्र अर्थसङ्गतिः भवति अत्र एतस्मिन् वाक्ये अर्थसङ्गतिः नास्ति प्र इति उपसर्गस्य अभावात् उपसर्गः नास्ति इति कारणात् अर्थसङ्गतिः नास्ति इति अस्ति
भगिनि एकः प्रश्नः अभावः एकः पदः एब्सेन्स् अभावस्य कारणात् इति वक्तुं शक्नुमः वा
अभावस्य कारणात् सत्यम्
अभावात् इत्युक्ते कथं सम्यक् अस्ति वा भगिनि अभावात्स्य
अभावात् उपसर्गस्य अभावस्य कारणात् सम्यक्
अस्तु
सम्यक् एव अस्तु सागरी भगिनी भवती एकमेव कृतवती अग्रे करोति वा देवः भक्तं वरेण
I don't understand the sentence bagini so I'm not able to say
astu devah bhaktam varam bhaktaya varam dadati iti arthe devah bhaktaya varam dattva anugraham karoti
anugrinnati
अत्र अनु आगच्छति देवः
अनुग्रहं करोति
अनुग्रहः अत्र अनुगृह्णाति अनुगृह्णाति
अस्तु भगिनि
वरेण अनुगृह्णाति इत्युक्ते टु गिव् ग्रेस् अनुग्रहं करोति अस्तु सारि सविता भगिनि अग्रे
आं भगिनि वेदनाय सः महत् कष्टम् अनुभवति
अनुभवति अत्रापि अनु एव अनु अस्तु उत्तमम् अग्रे भवान्
भवान् सदा सज्जनैः निर्दिष्टं मार्गम् अनुसरतु.
अत्रापि अनु एव. भवान् सदा सज्जनैः निर्दिष्टं
मार्गम् अनुसरतु.
अनुसरतु सज्जनैः निर्दिष्टं मार्गम् इत्युक्ते सज्जनाः एतं मार्गं प्रति गच्छतु इति निर्दिष्टं निर्देशं डैरेक्शन् ते डैरेक्टेड् सो भवान् सदा तत् मार्गम् अनुसरतु तं मार्गम् अनुसरतु. उत्तमम् अग्रे परमेश्वरः वदतु महोदय अन्य कोऽपि उक्तवती
मम वचनं
मा
स्वीकरोतु कृपया
मा स्वीकरोतु कृपया परन्तु मम वचनं मा स्वीकरोतु अपि अपि अस्ति मा
that is ulta don't
don't okay so okay. when you say no please don't accept my words ati iti iti vadati va athava please do not reject my words iti vadati va kimati
do not reject matlab mama vachanam ma nishiddh karu nishiddh no
so after निराकरोति इति मा निराकरोतु मा स्वीकरोतु किमपि मा निराकरोतु सम्यक् इति अहं चिन्तयामि. अस्तु अग्रे अग्रे महोदय वृक्षात्
वृक्षात् वृक्षात् तरणमयि सह पतितः
सो अत्र वृक्षात् अधः आगमनसमये तरणम् इत्युक्ते टु क्रास् आर् टु स्विम् इति अर्थे भवति. उपसर्गं योजयामः चेत् अधः आगमनम् इति अर्थे भवति.
Vrikshat, when he is getting up, you know, climbing.
No, coming down, coming down. So, atra sangeete asti kalu arohanam?
Avarohanam.
Avarohanam. Atra.
Avarohana tarana samaye.
Vrikshat, avatarana samaye. Saha patitaha.
Avatarana samaye, saha patitaha.
Patitaha. Astu. Bahu dhanyavadah maudaya. Sharada Bhagini.
आं भगिनि यन्त्रागारं नूतनवस्तूनि प्रोड्यूस् उत्पादयति
सम्यक् उत्पादयति
गुरुः शिष्यान् नीतिम्
उपदिशति सम्यक् उपदिशति सम्यक् भगिनि. ज्योति भगिनी अग्रे
अम्बा भवती प्रातः पञ्चवादने मां डाश् स्थापयतु.
किञ्चित् भिन्नमस्ति
स्थापयतु मीन्स्
सो अत्र अत्र भगिनि स्थापयतु मीन्स् टु कीप् इट् देयर् ओके सो पात्रं तत्र स्थापयतु इति अर्थे भवति. परन्तु अत्र अत्र प्रातः पञ्चवादने इति भवति चेत्
टु वेक् मी अप् रैट्
वेक् मी अप् करेक्ट्
It should come wake me up, no,
bhagini. Aam, bhagini, satyam.
अम्बा भवती प्रातः पञ्चवादने माम्
माम् सो अत्र एवं पश्यतु टु गेट् अप् वाट् डु यु से टु गेट् अप् करेक्ट् उत्तिष्ठतु
उत्तिष्ठतु हा उत्तिष्ठतु माम् उत्तिष्ठतु
सो अत्र उत्तापयतु इट् बिकम्स् लैक् दट् उत्तापयतु सो अत्र
ओके भगिनि
सो इट् बिकम्स् लैक्
उत्तापयतु अम्बा भवती प्रातः पञ्चवादने माम् उत्थापयतु
उत्थापयतु सम्यक् अग्रिमम्
आगच्छतु आगच्छतु मित्र उपविशतु
उपविशतु सम्यक् उपविशतु अस्तु अम्ब करोति वा अम्ब अस्ति वा करोति वा
कृपणः सर्वदा धनं कृपणः सर्वदा
कृपणः किं करोति धनं न ददाति खलु अतः सः सङ्गृह्णाति खलु
सर्वदा धनं सङ्गृह्णाति
सङ्गृह्णाति अस्तु
कृपणः अर्थं किं
कृपणः इत्युक्ते
धन्यवादः
धन्यवादः अस्तु अस्तु अग्रे सायङ्काले अम्ब
सायङ्काले पक्षिणः नीडं प्रविशन्ति
प्रविशन्ति उत्तमम् अस्तु अन्य कोऽपि अस्ति वा यस्य नाम अहं न उक्तवती अस्तु तर्हि
उमा उमाकृष्ण
गोपिका भगिनी अनन्तरम् उमाकृष्ण भगिनी अस्तु गोपिका भगिनी अग्रे
अहमपि अस्मि
आं भगिनि
नाम वदतु भगिनि
सन्ध्या
आम् आगच्छति भगिनि गोपिका भगिनी उमाकृष्ण भगिनी सन्ध्या भगिनी आगच्छति अस्तु गोपिका भगिनी इदानीं
विवाहनिमित्तम् एतदेव खलु भगिनि विवाहनिमित्तम् अहं बन्धून् आह्वयामि
पर्याप्तं भगिनि अग्रे उमाकृष्णन् भगिनि वदतु अध्यापकः
सम्यक्
अत्र एतदेव स्वीकरोतु भगिनि
मम अध्यापकः सम्यक् मै टीचर् आपयति
सो यु केन् जस्ट् यूस् अध्यापयति इति
अध्यापयति
हि टीचस् वेल् इति हि टीचस् वेल् अध्यापयति
धन्यवादः
धन्यवादः अग्रे सन्ध्या भगिनी
इदानीं गत्वा सायङ्कालात् पूर्वम् आगच्छतु
आगच्छतु अथवा प्रत्यागच्छतु आगच्छतु अथवा प्रत्यागच्छतु सो आक्चुलि इट् इस् प्रति विल् बिकम् प्रत्यागच्छतु प्रत्यागच्छतु अस्तु अस्तु सागरी भगिनी
अहं परीक्षायां प्रथमस्थानं प्र, प्राप्तवान्
सत्यं प्राप्तवान् प्राप्तवान् अस्तु अत्र उपसर्गविषये वयं कालेन एव अवगन्तुं शक्नुमः खलु अर्थः कः इति इदानीं प्रश्नः अस्ति वा उपसर्गविषये सत्यं सत्यम् अन्लेस् वि नो द मीनिङ्ग् परन्तु वेन् वि लुक् इन् द डिक्षनरी मीनिङ्ग् तत्र नास्ति ओके न प्राप्नुमः तत्र अर्थं किम् इति अस्तु अतः एव किञ्चित् कठिनं परन्तु कालेन वयम् अवगन्तुं शक्नुमः उदाहरणार्थं प्राप्नुमः अवगच्छामि न गच्छामि इति अस्ति चेत् गो अवगच्छामि इत्युक्ते टु अण्डर्स्टाण्ड् कथं जानीमः ओन्लि बै प्राक्टिस् खलु तथा एव भवति अस्तु अग्रे गच्छामः अग्रिमम् अस्ति त्वान्त ल्यबन्तम् इति त्वा अपि च ल्यप् अत्र वयं कुत्र त्वा प्रत्ययं योजयामः कुत्र ल्यप् प्रत्ययं योजयामः इत्युक्ते एकः एव कर्ता अनेकानि कार्याणि करोति चेत् अन्तिमकार्यं विहाय अन्यकार्यं स्वान्तरूपं स्वीकरोति नो चेत् ल्यबन्तरूपं स्वीकरोति सो अत्र बालकः इति स्वीकुर्मः पठति लिखति खादति निद्रां करोति बालकः पठित्वा लिखित्वा खादित्वा निद्रां करोति सो अत्र उपसर्गः नास्ति अतः त्वान्तपदम् उपयोगं त्वा प्रत्ययम् उपयोगं कर्तुं शक्नुमः वयं सो अत्र पठित्वा सोरि पठित्वा इति रूपं भवति क्षम्यताम् सो अत्र पठित्वा इति रूपं भवति एतस्य पदस्य नाम अस्ति त्वान्तम् Twantam padam is actually twantam but we generally don't pronounce it that much so we just say twanta padam iti twantam athava twanta padam so atra upasargah nasti patati likati khadati gacchati so atra gacchati iti asti twanta padam katam bhavati गत्वा इति भवति अत्र उपसर्गः नास्ति सो अत्र आगच्छति इति अस्ति चेत् कथं भवति आगच्छति
आगत्य
वकारः नास्ति यकारः अस्ति सो अत्र यकारः एव अस्ति खलु ल्यप् ल्यप् इति प्रत्यय अस्ति चेत् लकारः गच्छति पकारः अपि गच्छति यकारः एव तिष्ठति सो अत्र यकारः एव अस्ति अत्र किं किं गच्छति किं किं तिष्ठति ककारः गच्छति त्वा तिष्ठति अत्र य एव तिष्ठति सो अत्र आगत्य प्रपटि न प्रपर् मास्तु सो अत्र अन्य वाक्यमस्ति चेत् सः गृहम् आगत्य पात्रं प्रक्षाल्य निद्रां करोति. त्वान्तपदम् अथवा ल्यबन्तपदं. सो अत्र ल्यप् अन्ते अस्ति, ल्यप्. अतः एतस्य पदस्य नाम अस्ति ल्यप् अन्तं, परन्तु पकारः बकारः भवति, अतः ल्यबन्तम् इति वदामः. ल्यबन्तं त्वान्तम् इति वयं वदामः. प्रश्नः अस्ति वा? त्वान्तम् इत्युक्ते किं, ल्यप् इत्युक्ते किम् इति? अस्तु तर्हि प्रश्नः वा न? अस्तु तर्हि अग्रे
भगिनी, जस्ट् वन् स्माल् क्लारिफिकेशन्. इन् द फस्ट् एक्साम्पल् देट् यु गेव् इट् इस् यु सेड् बालकः पठित्वा लिखित्वा गत्वा, देट् इस् हेविङ्ग् डन् आल् दीस् थिङ्ग्स् हि प्लेस् लेट् से क्रीडति. Do we have to put a cha at the end of it? Would we say balakaha patitva likhitva gatva cha kridati?
Not necessary.
Okay.
So atra visheshyam kim itite pratamam gatva anantaram patitva anantaram likhitva anantaram pitva anantaram eva kridati iti arthe. समानसमये सः बालकः सर्वाणि कार्याणि न करोति. प्रथमम् एकं समापयित्वा अनन्तरम् आक्चुलि अत्र समापयित्वा न समाप्य आप्य समाप्य. सो अत्र प्रथमकार्यं समाप्य, द्वितीयं समाप्य, तृतीयं समाप्य, अनन्तरमेव चतुर्थं कार्यं करोति. अस्तु, एवमेव ल्यबन्तमपि समानमेव. समानसमये न करोति. एकमेकं कृत्वा 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 अनन्तरमेव अन्यं करोति.
अस्तु भगिनि, धन्यवादः. ब्यूटिफुलि एक्स्प्लेन्ड्.
No, thanks for the question, Bhagini. It was nice. Astu. Astu. Ka patitum idani Sandhya Bhagini Kritavati Sagari api. Savita Bhagini. Patativa Kripaya.
Haan Bhagini.
Haan.
Prakashah. Ramesh. Idani kutra kutra gamanam bhavatah. Rameshah. Adovitah patralayam gachhami. तत्र गत्वा बन्धं प्रेषयित्वा मूल्याङ्कान् कृत्वा कार्यालयं प्रत्यागच्छामि. कार्यालये
अस्तु कार्यालये एकनिमिषम् अहं किञ्चित् वक्तुमिच्छामि अत्र. सो अत्र इदानीं कुत्र गमनं भवतः, गमनम् इति पदस्य नाम किं? गमनम्. सो अत्र कुत्र गच्छति एव पर्याप्तं खलु? इदानीं कुत्र गच्छति भवान्? क्षम्यतां, तत्र किमपि अस्तु. सो अत्र इदानीं कुत्र गच्छति अथवा कुत्र गमनं करोति, स्मरति वा? स्मरन्ति वा?
कर्मणि प्रयोगः
न एतत् एतस्य नाम विभज्यप्रयोगः. विभज्यप्रयोगः. सो अत्र गच्छति इति साधारणक्रिया, गच्छति इति अस्ति चेत् एकनिमिषम् क्षम्यता. गच्छति इति अस्ति चेत् गमनम् इति स्वीकृत्य गमनं करोति. अस्ति इति अस्ति खलु तत्र करोति इति योजयामः गच्छामि इति अस्ति चेत् गमनं करोमि करोमि गच्छामः गमनं
कुर्मः
कुर्मः गच्छन्ति
गमनं
कुर्वन्ति कुर्वन्ति गतवान्
कृतवान् गमनं कृतवान्
गमनं कृतवान् गमिष्यन्ति
गमनं करिष्यन्ति
करिष्यन्ति सो अत्र गमनम् इति पदस्य परिवर्तनं न भवति भूतकाले वा वर्तमानकाले वा भविष्यत्काले वा गमनं गमनमेव करिष्यति कृतवान् कृतवती कृतवत्यः करिष्यन्ति कुर्मः करिष्यामः किमपि 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 परिवर्तनं भवति तत्र परन्तु एतत् कृत्वा करोति इति क्रियापदमपि गच्छति गमनमेव तिष्ठति अत्र गमनम् इति पदमस्ति चेत् षष्ठीविभक्तिरूपं भवति कर्तृवा अथवा कर्म वा कर्तृपदं वा कर्मपदं वा अस्ति चेत् अत्र षष्टिविभक्तिरूपं भवति सो अत्र तथा एव अस्ति इदानीं कुत्र कुत्र भवतः गमनं भवति एव वाक्यम् अस्ति भवतः गमनं कुत्र 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 अस्ति कुत्र कुत्र अभवत् किमपि अस्तु वा सो वयं सो अत्र गमनम् इति प्रथमा विभक्ति वा द्वितीया विभक्ति वा अनन्तरं तृतीया विभक्ति अपि भवति चतुर्थी अपि भवति पञ्चमी षष्टि सप्तमी अपि अस्ति अस्तु आदौ सो अत्र सः उत्तरं वदति आदौ इतः पत्रालयं गच्छामि आदौ इत्युक्ते प्रथमं प्रथमं प्रथमम् इतः पत्रालयं गच्छामि अनन्तरं तत्र गत्वा स्वान्तरूपं बन्धं प्रेषयित्वा प्रेषयति इति अस्ति चेत् इत्वा भवति नो चेत् तथा न भवति पूजयति पूजयित्वा प्रक्षालयति प्रक्षाल्य इति भवति प्रेषयति प्रेषयित्वा इति भवति मूल्याङ्कान् इत्युक्ते के मूल्याङ्कान् मूल्याङ्कान् क्रीत्वा क्रयणं कृत्वा सो अत्र क्रीत्वा इति अस्ति विभज्य प्रयोगः भवति चेत् क्रयणं कृत्वा कार्यालयं प्रत्यागच्छामि प्रति आगच्छामि उपसर्गः अस्ति प्रत्यागच्छामि अत्र प्रत्यागच्छामि अनन्तरं कार्यं करोमि इति वाक्यमस्ति चेत् कथं लिखामः
प्रति आगत्य कार्यं करोमि
प्रत्यागत्य य इति भवति किमर्थम् इत्युक्ते प्रति अपि अस्ति आ अपि अस्ति प्रति आ गच्छामि सो अत्र उपसर्गद्वयम् अस्ति अतः प्रत्यागच्छामि इति अस्ति सो अत्र स्थगयामः एकं लघु किं कथां पश्यामः वा लघु कथाम्
आं भगिनि
अस्तु तृप्तिबुद्धिः इति अस्ति अस्तु अत्र मास्तु अत्र गच्छामि. अन्येक भगिनी कथाम् उक्तवती, एतत् पश्यामः.
सर्वेभ्यः नमः. मम नाम गोपिका अस्ति. अहम् एकां कथां विवक्षामि. सा कथा गीतायाः एकस्य श्लोकस्य अर्थं बोधयति. तत् अन्ते अहं वदिष्यामि.
Can you all see this? पश्यन्ति वा?
आं भगिनि.
आं भगिनि.
अस्तु उत्तमं.
कथा. पूर्वम् एकस्मिन् समये एकस्मिन् ग्रामे एकस्मिन् गृहे मालानाम्ना महिला कर्मकरी आसीत्. यद्यपि मालायाः स्वामिनी लता अधिकानि कार्याणि ददाति, अपि च माला तान् समापयति, तथापि लता किमपि दोषम् अन्वेषणं कृत्वा तं निन्दति ताडयति स्म. विभिन्नेभ्यः स्वरसङ्ग्रमेभ्यः लता आज्ञां करोति, माला तु सहनं करोति. एवं बहूनि दिनानि गतानि. एकदा माला दुःखेन निर्बलेन च पार्श्वे अत्र उपविष्टवती. तदा एका वृद्धा मालायाः अपेक्षया दुःखिता आसीत्. मालया ज्ञातं यत् तस्य बुभुक्षा वर्तते इति. अतः तस्याः शक्यं साहाय्यं कृत्वा ततः प्रस्थितवती. मालायाः स्वामिन्याः गृहं प्राप्तुं किञ्चित् विलम्बः जातः इति कारणात् सा मालाम् अन्वेषणं कुर्वती आसीत्. तदा सा मालां दृष्टवती. सा मालां दण्डयति यत् माला एकस्मिन् पञ्चरे सिंहेन सह तत्र उपवेष्टव्यम् इति. माला भयेन तत्र उपविष्टवती स्म. तदा माला यस्यै वृद्धायै सहायं कृतवती, सा आगत्य कुञ्चिका उपयुज्य पञ्चरस्य उद्घाटनं कृतवती. माला सन्तुष्टा, वृद्धा तृप्ता च. कथा समाप्ता. कथायाः नीतिः अहं विवक्षामि. प्रथमः नीतिः, यत् अस्माकं कर्म तत् कर्तव्यम्. द्वितीयः, अस्माकं क्रिया तस्याः फलस्य निमित्तं मा भवत्. कर्मण्यवाधिकारस्ते मा फलेषु कदाचन, मा कर्मफलहेतुर्गुर्मा ते सङ्गोत्तव कर्मणि इति भगवान् कृष्णः अर्जुनाय बोधितवान्. धन्यवादः. जयतु संस्कृतं, जयतु भारतम्.
अति उत्तमं. वेरि नैस्.
सम्यक् खलु?
वेरि नैस्.
गोपिका, गोपिकी लिङ्क् प्रेषयतु ग्रूप् मध्ये.
भगिनी भवती प्रेषयितुं शक्नोति वा? राधिका,
अहं प्रेषयामि. सो डिड् एव्रिबडि अण्डर्स्टाण्ड् द स्टोरि? गोपिका भगिनी, केन् यू प्लीस् से इट् अगेन् भगिनी? आङ्ग्लभाषायां वदति वा अथवा सरलसंस्कृतेन वदतु किमपि.
एकस्मिन् ग्रामे एका कर्मकरी सर्वेण्ट् मेड् वसति स्म. तस्याः स्वामिनी सर्वदा बहवः कार्याणि ददाति. एतत् करोतु, एतस्य प्रक्षालनं करोतु इति बहवः कार्याणि ददाति. सा तु तान् समापयति. एकदा किं भवति, सा बहु किं वदामि, बहु वीक् जाता, बहु अस्वस्था अभवत्. अतः सा एकस्मिन् स्थाने उत्तिष्ठितवती. तदा सा एकां वृद्धां पश्यति. सा अपि बहु दुःखिता आसीत्. मालायाः अपेक्षया सा एव बहु दुःखिता आसीत्. अतः सा किं कृतवती, तस्याः समीपे किञ्चित् मूल्यानि सन्ति, सा तान् दत्त्वा ततः प्रस्थितवती. तदा किम् अभवत्, मालायाः स्वामिनी तस्याः अन्वेषणं कुर्वन्ती आसीत्, सा तदा मालां दृष्टवती. तस्याः स्वामिनी मालां दृष्टवती, सा माला तस्याः स्वामिन्यै किमपि वार्तां न दत्तवती. अहं गच्छामि, अहं किञ्चित् विश्रामं प्राप्नोमि इति न उक्तवती. अतः सा स्वामिनी किम् अभवत्, किं बहु कुपिता अभवत्, तस्याः कुपिता बहु वर्तते, अतः सा तं निन्दति यत् भवती एकं केज् मध्ये सिंहेन सह तिष्ठतु इति. एतत् श्रुत्वा सा बहु दुःखिता आसीत्. किं कर्तव्यं, सा गन्तव्यमेव, स्वामिनी उक्तवती. अतः सा गतवती केज् मध्ये सिंहेन सह, सा तत्र तिष्ठवती. तदा माला यस्यै वृद्ध्यायै साहाय्यं कृतवती, सा तत्र आगत्य कुञ्चिकायाः उद्घाटनं कर्तुं प्रयत्नं कृतवती. तस्याः समीपे किमपि वस्तुः आसीत्, तत् उपयुज्य सा प्रयत्नं कृतवती, तस्य उद्घाटनमपि अभवत्. तदा तस्याः बहु सा बहु सन्तुष्टा अभवत्. सा किमपि एक्स्पेक्टेशन्स् तस्याः समीपे नासीत्, मालायाः समीपे एक्स्पेक्टेशन्स् किमपि नासीत्. सा तस्याः सहायं कृत्वा वृद्धायाः साहाय्यं कृतवती. सा किमपि एक्स्पेक्टेशन्स् न कृतवती यत् अहं तस्याः साहाय्यं कृतवती, अतः सा मम कृते अपि किमपि कर्तव्यम् इति सा न चिन्तितवती. सो एतत् श्लोकः एतस्य कथायाः नीतिः भगवान् कृष्णः अपि भगवद्गीतायां वदति, कर्मण्यवाधिकारस्ते मा फलेषु कदाचन इति एकः श्लोकः अस्ति. अस्माकम् आक्षन्स् तत् अस्माकं फलस्य निमित्तं मा भवतु. यु हेव् अ रैट् टु पर्फार्म् युवर् प्रिस्क्रैब् ड्यूटि, बट् यु आर् नाट् एण्टैटल्ड् टु द फ्रूट्स् आफ् आक्षन् इति. सो अस्माकं क्रिया अस्माकं फलस्य निमित्तं मा भवतु. अस्माकं किं कार्यं कर्तव्यं तत् कर्तव्यम्, अनन्तरं तत् तस्य फलम् अस्माकं समीपे निश्चयेन आगच्छति इति कथा.
हा, बहु उत्तमं भगिनि,
बहु सम्यक् गोपिके,
अति उत्तमं गोपिके,
धन्यवादः. अवगन्तुं शक्नोति वा संस्कृतं सम्यक् आसीत् वा?
बहु सुन्दरं भगिनि, सम्यक् सम्यक्,
धन्यवादः, धन्यवादः, धन्यवादः
भगिनि. केज् इस् काल्ड् पञ्चरः, पिञ्जरः ओर् पञ्चरः?
पञ्चरः एव खलु,
पञ्चरः, पञ्चरः.
अस्तु, अन्यप्रश्नः अस्ति वा? नो चेत् विरमाम, शान्तिमन्त्रं वदामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे कष्टाणि पश्यन्तु, मा कश्चित्
दुःखभाग्भवेत्. ॐ शान्ति शान्ति शान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः, हरिः ओम्.
धन्यवादः,
धन्यवादः भगिनि, धन्यवादः भगिनि,
धन्यवादः गोपिके,
धन्यवादः,
धन्यवादः, धन्यवादः.